पित्तहरैः मात्रां कालं च प्रमाणीकृत्य विरेचनं तु सर्व उपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते विषजः। तद्यादितः एवम् आमाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलम् अपकर्षति। तत्र अवजिते पित्ते अपि शरीर अन्तर्गताः पित्तविकाराः प्रशान्तिमाबध्यन्ते। यदा अग्नौ व्यपोठे केवलम् अग्निगृहं शीती भवति तद्वत्।